एवमे सुतं एकं समयं भगवा सवतीयं विहरति चेत् वने अनतपिण्टिकसार मे अत को अन्यतर देवता अभिकन्ताय र तिया अभिकन्तवन्न केवलकपं चेतवनं उपासित्वा येन भगवा तेनुपसङ्कमि उपसङ्कमित्वा भगवन्तं अभिवादित्वा एकमन्तं अथासि एकमन्तं तिताखोस देवता भगवन्तं कथाय अच्च भासि बहुदेवमनुसच मङ्गलानि अचिन्तयुं आकङ्कमान सोतानं ब्रूहि मङ्गलमुत्तमं असेवन च बालानं पण्डितानं च सेवन भुजा च पूजनीयानं एतमं कलमुत्तमं पतिरूपते सव सो च पुपे च कतपुण्यता अतसम्मापनिधि च एतं मङ्गलमुत्तमं बाहु सज्जं च सिप्पं च विनयो च सुशिक्षितो सुभाषित च याव च एतं मङ्गलमुत्तमं माता पितुः उपादानं पुत्रधारा ससङ्गहो अनकुलच कम्मन्त एतं मङ्गलमुत्तमं दानं च धर्मचर्या च यतकानं च सङ्गहो अनवचनिकम्मनि एतं मङ्गलमुत्तमं आरति विरति पापम जपन च संयमो अपमदो च धम्मेषु एतं मङ्गलमुत्तमङ्गारवो च निवातो च सन्तु ते च कतन्युतकालेन धम्म श्रवणं वेतं मङ्गलमुत्तमं खन्ति च सो वच सत समननं च सनं कालेन धम्म स गच्छ एतं मङ्गलमुत्तमं तपो च ब्रह्मचर्यं च आर्यस च न दर्शनं निबाणसच्चिकीर्या च एतं मङ्गलमुत्तमं पुत्तसलोकधम्मे हि चित्तं यसनकं पति अशोकं विरचं खेमं एतं मङ्गलमुत्तमं एतादिशनिकत्वान सपत्तमपराजित सपत्तसोत्तिङ्कचन्ति तन्ते सं मङ्गलमुत्तमन्ति।